भक्तिं वा ज्ञानमालम्ब्य स्त्रीद्रव्यरसलोलुभाः पापे प्रवर्तमानाः स्युः कार्यस्तेषां न सङ्गमः।